एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्तारूढस्य नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य गतदिने उपविष्टेन सचिवालय उपवेशेन अध्यक्षद्वयस्यैव प्रस्तावोऽवादृत्य औपचारिकम् अनौपचारिकम् च विमर्शनम् युगवत् एव अग्रे वर्धयितुम् निर्णीतम् वर्तते। प्रधानमन्त्री निवास्य बालवाटारस्थाने उपविष्टेन तेनोपवेशेन प्रधानमन्त्रिणा अध्यक्षेण च केपी शर्मा ओलिना अपराध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च पूर्वोपवेशे स्वस्व पक्षतः प्रस्तुतौ प्रस्तावौ आश्रित्य नेतृणाम् मध्ये औपचारिकम् अनौपचारिक विमर्शनम् विधाय निष्कर्षम् प्राप्तुम् सहमति धृतेति नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रवक्ता नारायण काली श्रेष्ठ अनुपवेशम् अबोधयत्। प्रवक्ता श्रेष्ठ प्रस्ताव विषयकम् औपचारिक विमर्शनम् गतदिने प्रारब्धम् इति अवोचत्। सचिवालयस्य अपर उपवेशा अद्य दिवा एकवादने पुनर्वसति। गतदिने आराष्ट्रम् 370,002 जना कोरोना विषाणो संक्रमणात् मुक्ता सन्ति। एतदनु गतदिनम् यावत् कोरोना संक्रमणात् मुक्तानाम् जनानाम् संख्या 116,495 च प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। तथ्याङ्कानाम् अनुसारेण ह्यस्तनावधि कोरोना संक्रमणात् प्राप्त स्वास्थ्य लाभानाम् जनानाम् अंकमानः प्रतिशतम् 10.72%। ह्यः अतिरिक्तेषु 174 जनेषु कोरोना संक्रमणम् पुष्टिभूतम् वर्तते। देशस्य विभिन्नासु प्रयोगशालासु 8,380 च निदर्शनानाम् पीसीआर विधिना परीक्षणम् विहितम् सद् 73% पुरूषेषु 71% महिलासु च संक्रमणम् पुष्टिभूतमिति मन्त्रालयोऽसौ ज्ञापयति। एतदनु नेपाले ह्यस्तन दिवसावधि कोरोना विषाणुना संक्रान्तानाम् जनानाम् संख्या 123,254 च ह्यस्तन दिवसावधि आराष्ट्रम् कोरोना विषाणुना सक्रिय संक्रान्ताः जनाः 16,33,67 च सन्ति। एतेषु दृष्टगभीर लक्षणानाम् 70,300 जनानाम् सघनोपचार कक्षेषु 63 जनानाम् च कृत्रिम श्वास प्रश्वासोपकरणेषु उपचारः विधीयमानोस्तीति मन्त्रालयेन ज्ञापितम् वर्तते। कोरोना संक्रमणस्य कारणेन ह्य अतिरिक्ताः 21 जनाः मृताः। अनेन सह कोरोना संक्रमणस्य कारणेन मृता जनानाम् समग्र संख्या 169,575 च प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। काष्ठमण्डपस्य प्राय स्थानीय स्तरः विद्यालयेषु पठन पाठन प्रारम्भणस्य पूर्वकार्ये सक्रियाः सन्ति। संघीय सर्वकारेण स्वास्थ्य मापदण्डान् अवलम्ब्य शिक्षण क्रियाकलापान् अग्रे वर्धयितुम् विहितम् अधिकार प्रत्यायोजनम् अनु कतिचित् स्थानीय स्तरैः पठन पाठनम् सञ्चालितम् अस्ति। कतिपयाः प्रारम्भणस्य उपक्रमे च सन्ति। शंखरापुर नगरपालिकया स्वास्थ्य मापदण्डान् अवलम्ब्य सामाजिक दूरीम् संस्थाप्य च स्वानुकूलताम् विलोक्य पठन पाठन संचालयितुम् विद्यालयाः निर्दिष्टाः सन्तीति नगर प्रमुख सुवर्ण श्रेष्ठः अज्ञापयत्। तारकेश्वर नगरपालिकया कागेश्वरी मनोहरा नगरपालिकया च स्वास्थ्य मापदण्डान् अवलम्ब्य अस्यैव मार्गमासस्य 21 दिवसात् विद्यालयान् सञ्चालयितुम् निर्णीतमस्ति। अपरत्र ललितपुर महानगरपालिकया काष्ठमण्डपोपत्यका नगर प्रमुख मञ्चस्य निर्णयानम् अनुकूल समये एव विद्यालयाः सञ्चालयिष्यन्ते इति ज्ञापितम् वर्तते। महानगर प्रमुख चिरीबाबु महर्जन केनोपायेन कदा विद्यालयाः सञ्चालयितव्याः इति विषयः काष्ठमण्डपोपत्यकायाः नगर प्रमुखैः सह विमर्शनस्य अनन्तरमेव निर्णेष्यते इत्यभासत। गृहमन्त्रिणा रामबहादुर थापा विदेन शीतकालस्य शीतलहर्या हिमपातस्य च कारणेन सम्भावितम् संकटम् न्यूनीकर्तुम् आवश्यक पूर्वकार्येण प्रतिकार योजनया च अग्रे वर्धितुम् निर्दिष्टमस्ति। गृहमन्त्रालयः उपविष्टे राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन कार्यकारी समितेः उपवेशे गृहमन्त्री थापा शैत्यकाले हिमपातेन शीतलहर्या च कारणेन सम्भावितां जनधनयो ख्यातिम् न्यूनीकर्तुम् आवश्यक योजनया अग्रे वर्धितुम् निर्दिष्टवान्। शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेल कथयति राष्ट्रस्य सप्तसु एव प्रदेशेषु प्रतिप्रदेशम् एकम् चिकित्सा महाविद्यालयस्य स्थापनात्मकस्य सर्वकारीय निर्णयस्य संकल्पस्य च अनुसारेण कार्याणि अग्रे वर्धितानि सन्ति। महोत्तरी जनपदस्य बर्दिवास नगरपालिकायाः 11 वडा क्षेत्रस्थिते सुन्दरवस्तिस्थाने निर्मल लामा बहुप्राविधिक शिक्षालयस्य नवनिर्मितम् भवनम् ह्यः उद्घाटयन् मन्त्री पोखरेल अवोचत् दक्ष जनशक्तेः विकास समृद्धे आधारो निर्मीयते। स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः वदति नागरिकाणां स्वास्थ्यस्य विषये सर्वकारः दायित्ववाहको वर्तते। चितवनवर्तिनो योगी नरहरिनाथ प्राकृतिक चिकित्सालयस्य निरीक्षणस्य पश्चात् पूर्वेद्यः आयोजिते कार्यक्रमे मन्त्री ढकालः अवोचत् कोरोना महामारीतः नागरिकान् रक्षितुं प्राथमिकतया कार्याणि विधीयमानानि सन्ति। संस्कृत पर्यटन नागरिक उड्डयन मन्त्री योगेश भट्टराई वदति देशस्य पञ्चपञ्चाशतो विमानस्थलानां मध्ये सम्भावनायुतानि विमानस्थलानि प्राथमिकतया अग्रे वर्धापयिष्यन्ते। सिमकोट विमानस्थलस्य अनुगमनाय सिमकोटस्थलं प्राप्तो मन्त्री भट्टराई हुम्ला जनपदात् कैलाश मानसरोवरस्य दर्शनं विधातुं सम्भाव्यताम् अध्येतुं हुम्ला जनपदस्य विकासाय कुरुयोजनां निर्मातुं च अन्वरुणत्। ह्यैव नेपालगंज विमानस्थले नवनिर्मितं विस्तारितं विमान विश्रान्ति स्थलं ह्य उद्घाटयन् मन्त्री भट्टराई अगदत् नेपालगंज विराटनगर विमानस्थले भविष्यति अन्तर्राष्ट्रिय विमानस्थलस्य रूपेण विकासयितुं प्राथमिकतायां स्थापिते स्तः। द्वितीय प्रदेशस्य मुख्यमन्त्री लालबाबु राव भासते जनकपुरवर्तिनं प्रादेशिक चिकित्सालयं प्रदेशस्यैव निदर्शन चिकित्सालयं निदर्शन चिकित्सालय सम्पादयिष्यते। मुख्यमन्त्री रावत प्रादेशिक चिकित्सालय अतिरिक्तं विभागत्रयं ह्य उद्घाटयन् प्रदेश सर्वकारेण चिकित्सालयम् इमं मधेश स्वास्थ्य विज्ञान अध्ययन प्रतिष्ठानस्य रूपेण विकसयितुं विधेयकम् आनीतम् अस्तीति न्यगदत्। मुख्यमन्त्री रावत अनेन चिकित्सालयेन प्रदेशस्य स्वास्थ्यक्षेत्रे गुणात्मक सुधार आनेष्यते इति विश्वासं व्यक्तवान्। त्रिभुवन विश्वविद्यालयस्य उपकुलपतिना प्राध्यापकेन डा धर्मकान्त बास्कोटा विदेन त्रिभुवन विश्वविद्यालय अनुशासनं परिपाल्य आर्थिकीम् अनियमीयततां न्यूनीकर्तुं सर्वविधानाम् उपायानाम् अवलम्बनाय सम्बद्ध विभागाः निर्दिष्टाः वर्तन्ते। असौ आन्तरिक लेखा परीक्षणे एकरूपतामानीय लेखा परीक्षणे संलग्नाः कर्मचारिणः आर्थिक्याः अनियमिततायाः वित्तस्य समाधाने समन्वयनस्य भूमिकां निर्वोढुम् अन्वरुणत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः भासते प्रतिग्रामं सेवा सौविध्यानि प्रापय्य तत्र निवसनाय वातावरणं निर्मातव्यम्। तनहु जनपदस्य व्यास नगरपालिका रिसिङ ग्रामपालिकयोः योजकं सेतीनद्याः सुडे सेतुं ह्य उद्घाटयन् वरिष्ठ नेता पौडेलः अकथयत् वृत्त्युपार्जनस्य अवसरं सृष्ट्वा श्रमशक्ति ग्रामेव उपयोक्तव्या। राष्ट्रिय मानवाधिकार आयोगेन काष्ठमण्डपो उपत्यकायां मार्गस्य विस्तारणस्य क्रमे गृहाणां त्रोटनात् विस्थापितेभ्य परिवारेभ्य उचित क्षतिपूर्ते व्यवस्थां विधाय आवास सम्पत्ते अधिकारं सुनिश्चेतुं सर्वकारः अनुरुद्धोऽस्ति। आयोगस्य सहायक प्रवक्ता लोकनाथ वास्तोला विधेन ह्य प्रकाशितायां विज्ञप्तौ सर्वोच्च न्यायालयस्य आदेशस्य विपरीततया व्यक्तिनां गृहाणि त्रोटयित्वा विस्थापितानां नष्ट सम्पदां व्यक्तिनां सम्पदा उचितं क्षतिपूर्तिं प्रदाय आवास सम्पदा अधिकारं सुनिश्चेतुं सर्वकारः अनुरुद्धो वर्तते इति समाचारः।